चन जाने स्तुति महो नचावानं ध्यानं तदपि चन जाने स्तुति कथाः न जाने मुद्रास्ते तदपि चन जाने विलपनम् परं जाने मात तदनुसरणं केशहरणं विधेयज्ञानेन द्रविण विरहेणालसतया विधेया शक्यत्वा तव चरणयो याचुतिरभो तदेतत्क्षन्तव्यम् जननि सकलोद्धारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति पृथिव्यां पुत्रास्ते जननि बहवा सन्ति सरलाः परं तेषां मध्ये विरलतरलोऽहं तव सुतः महीयोऽयं त्यागः समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति जगन्मातर्मातः तव चरणसेवा न रचिता न वा दत्तं देवी द्रविणमपि भूयस्तव मया तथापि त्वं स्नेहं मयि निरुपमं यत्र कुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति परित्यक्ता देवा विविधविधसेवाकुलतया मया पञ्चाशीते रधिकमपनीते तु वयसि इदानीं चिन्मात तव यदि कृपादापि भविता निरालम्बो लम्बो दरजननिकं यामि शरणं श्वपाको जलपाको भवति मधुपाकोपमगिरा निरातं कोरं को विहरति चिरं कोटिकनकैः तवापर्णे कर्णे विशति मनुवर्णे फलमिदं जनको जानीते जननि जपनीयं जपविदौ चिताभस्मालेपो गरलमशनं दीपटधरो जटाधारी कण्ठे भुजगपतिहारी पशुपतिः कपाली भूतेशो भजति जगदीशैकपदविं भवानी त्वत्पाणि ग्रहणपरिपाटी फलमिदं न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे न विज्ञानापेक्षा शशिमुखि सुखे चापि न पुनः अतस्त्वां संयाचे जननि जननं यातु मम वै मृदानि रुद्राणि शिव शिव भवानीति जपतः नाराधितासि विधिना विविधोपचारे किं वृक्षचिन्तन परेण कृतं वचोभिः श्यामे त्वमेव యది కించన మయ్యనాథే గచ్ఛే కృపాముచితమంబ పరం తవైవ. ఆపత్సుమగ్నం స్మరణం త్వదీయం కరోమి దుర్గే కరుణానవేశీ నైతచ్ఛటత్వం మమ భావయేథ క్షుధాతృషార్తా జననీం స్మరంతే.
జగదంబ విచిత్రమత్ర కిం పరిపూర్ణా కరుణాస్తి చేన్మయి అపరాధ పరంపరా పరం నహి మాతా సముపేక్షతే సుతం.
మత్సమ పాతకీ నాస్తి పాపగ్ని త్వత్సమానహి ఏవం జ్ఞాత్వా మహాదేవి యథా యోగ్యం తథా కురు.